त्वमेव प्रत्यक्षं तत्त्वमसि त्वमेव केवलं कर्तासि त्वमेव केवलं धर्तासि त्वमेव केवलं हर्तासि त्वमेव सर्वं अल्विदं ब्रह्मासि साक्षादासि नित्यं कृतं वच्मि सत्यं वच्मि अवत्वमाम् अववक्तारम् अवश्रोतारम् अवदातारम् अवगतारम् अवानुचाण्डमवशिष्यम् अवपश्चात्तात् अवपुरस्तात् अवोत्तरात्तात् अवदक्षिणात्तात् अवचोर्ध्वात्तात् अवाधरात्तात् सर्वतो मां पाहि पाहि समन्तात् त्वं वाङ्मयस्त्वं श्रुतिमयः त्वम् आनन्दमयस्त्वं ब्रह्ममय त्वं सच्चिदानन्दात्रिदियोऽसि त्वं प्रत्यक्षं ब्रह्मासि त्वं ज्ञानमयो विज्ञानमयोऽसि सर्वं जगदिदं त्वत्तो जायते सर्वं जगदिदं त्वत्तस्तिष्ठति सर्वं जगदिदं त्वयि प्रलयमिष्यति सर्वं जगदिदं त्वयि प्रत्येति त्वं भूमिरापो नरो दिवो नवः त्वं च चत्वारि वाक्पदानि त्वं गुणत्रयादीतः त्वं देहत्रयादीतः त्वं कालत्रयादीतः त्वं होराधारस्थितोऽसि नित्यं त्वं शक्ति प्रलयात्मकः त्वां योगिनो ध्यायन्ति नित्यम् त्वं ब्रह्मा स्वं विष्णु स्वं रुद्र स्वं इन्द्र स्वं अग्नि स्वं वायु स्वं सूर्य स्वं चन्द्रमा स्वं ब्रह्म भूर्भुवस्वरो गणानि पूर्वमुच्चार्य वर्णानि तदनन्तरम् अनुस्वार परकरः अर्धेन्दुरसितम् हरेणरिधम् एतत्त्वमनुष्यरूपं प्रकारो पूर्वरूपम् अकारो मध्यमरूपम् अनुस्वारशान्त्यरूपं बिन्दुरुदुकररूपं नादसंहारं शैलासन्धि सैषा गणेशविद्या गणकऋषि निद्रजायत्री छन्दः गणपती देवता ॐ गं गणपते नमः एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ती प्रचोदयात् एकदन्तं चतुरहस्तं पाशमङ्कुशधारिणं रथं च भरतम् हस्तैर्विभ्राणं मूषकध्वजं रक्तं लम्बोदरं चुर्पकर्णकं रक्तवाससं रक्तबन्धानुलिप्ताङ्गं रक्तपुष्पैः सुभूषितं भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् आविर्भूतं च सृष्ट्यादौ प्रकृते पुरुषात् परम् एवं ध्यायति यो नित्यं स योगी योगिनां वरः ब्रह्मपतये नमो गणपतये नमस्ते प्रमथपतये नमस्ते अस्तु लंबोदराय एकदंताय विघ्ननाशिने शिवसुताय श्रीवरदमूर्तये नमो नमः साक्षात् श्री आदिशक्ति माताजी श्री निर्मला